प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः आना सत्योरुगाजारथे नेमं यज्ञमुपनो जातमच्छ ऊर्ध्वं केतुं सविता देवो अश्रेज्योतिर्विश्वस्मै भुवनाय कृण्वन् आप्राद्यावा पृथिवी अन्तरिक्षं विसूर्यो रश्मिभिश्चेकितानः आवहन्त्यरुणेर्ज्योतिषागान्महे चित्रा रश्मिभिश्चेकिताना प्रबोधयन्ते सुविताय देव्यो उषा ईजते सुयुजारथेन आभां वहिष्ठा इहते वहन्तु रथा अश्वा स उषसो व्योष्टौ इमे हि वाम् मधुपेजा जसोमा अस्मिन् यज्ञे वृषणामादयेथाम् अनायतो अनिबद्धः कथायन्यम् उत्तानोपपद्यतेन कया आयाति स्वधया को ददर्श दिवः स्कम्भः समृतः पातिनाकम्